एष रेडियो नेपालः सम्प्रति समाचाराः श्रूयन्ताम् प्रवाचकः उपेन्द्र दाहालः। प्रतिनिधि सभायाः उपवेशे आगामिनः आर्थिक वर्षस्य राजस्व व्ययोः वार्षिकानुमानम् आधृत्य ह्योऽपि विमर्शनम् सततम् अचलत्। आयव्ययक विषयके विमर्शने भागम् गृह्णन् प्रमुख प्रतिपक्षिणो नेकपा एमाले दलस्य अध्यक्ष केपी शर्मा ओली आयव्ययकम् जनतायाः हितम् केन्द्रे निधाय जनतायाः जीवनस्तरस्य परिवर्तनत्वेन आगन्तुम् न सक्तमिति अवदत्। अध्यक्ष ओली करस्य अंकानाम् परिवर्तनम् आधृत्य उत्थिते विषये प्रश्नम् उद्भावयन् सर्वकारेण एतस्मिन् विषये गभीरेण भाव्यमिति अगदत्। विमर्शने सहभागी सांसदः विमलेन्द्र निधि अकथयत् रामायण परिपथस्य सेन देशः आर्थिक सांस्कृतिक रूपेण समृद्धो भवतीति हेतोः एतस्य क्रियान्वयन पक्ष प्रभावकारी विधातव्य। सांसदः योगेश भट्टराई प्रस्तुते आयव्ययके संचालन व्ययः 98 अब्जैः वर्धितः इति भाषमाणः एतत् कथम् विदम् वित्त न्यूनीकरणमस्तीति अपृच्छत्। उपवेशे सांसदः माधव सापकोटा आयव्ययकम् निर्वाहमुखी परम्परागतम् चास्तीति अब्रवीत्। विमर्शने सांसदाः विराजभक्त श्रेष्ठः बुद्धिमान तामाङ भानुभक्त जोशी अब्दुल खान रामप्रकाश चौधरी च धारणाः उपस्थापयन्। तत्पूर्वम् आयव्ययकस्य निर्माणे अनधिकृत व्यक्तेः संलग्नतायाः विषये प्रतिनिधिसभायां सांसदैः उत्थापितं प्रश्नम् उत्तरयन् अर्थमन्त्री डा प्रकाश शरण महत आगामिनः आर्थिक वर्षस्य आयव्ययक निर्माणे केवलम् आयव्ययक निर्माण दिग्दर्शने उल्लिखितैरेव पदाधिकारिभिः उषित्वा करस्य अंकाः निर्धारिताः इति समस्पष्टयत्। अर्थमन्त्री डा महत अवदत् गोप्य प्रकोष्ठे केवलम् आधिकारिक व्यक्तिभिः उषित्वा करस्य अंकान् वर्धयितुम् न्यूनीकर्तुम् परिवर्तयितुम् च निर्णीतम् वर्तते। आत्मना कथम् विदादपि प्रभावादमुक्तो भूत्वा पारदर्शी पद्धत्या कार्यम् सम्पादितमिति चर्चयन् अर्थमन्त्री डा महत प्रभावादमुक्तो भूत्वा कार्यसम्पादनम् विधीयते इत्युद्दिश्य मन्त्रालयम् प्रविष्टः इत्यभाषत। अर्थमन्त्री डा महत आत्मनः मन्त्रालय पदवहनात् प्रागेव आयव्ययक निर्माणार्थम् आवश्यक सहयोगिनो रूपेण रामकृष्ण श्रेष्ठस्य नियुक्तिर्विहिता आसीदिति सूचयन् करस्य अंकानां वर्धन न्यूनीकरण परिवर्तनानां निर्णय प्रक्रियायां श्रेष्ठस्य संलग्नता नास्तीति स्पष्टीकृतवान्। वैद्युतयानानि प्रोत्साहयितुम् इतःपूर्वम् न्यून प्रवेशशुल्कस्य अंकाः निर्धारिताः इति तर्कयन् असौ वैद्युतयानेषु क्रियान्वेतव्यस्य करस्य समयानुकूलतायाः आवश्यकतायाः कारणेन करस्य अंकेषु पुनरवलोकनम् विहितमिति प्रत्यपादयत्। प्रतिनिधिसभायाः गतदिवसीयोपवेशे नेकपा एमाले दलस्य प्रमुख सचेतक पदीयेन पदमगिरी इत्यनेन मध्यस्थानुचितार्थिक लाभ ग्राहिणाम् माध्यमेन करस्य अंकानाम् परिवर्तनस्य सम्बन्धे अशेष जनतया ज्ञातव्य विषये अर्थमन्त्रितः सन्तोषजनकम् उत्तर प्रदानम् अभियाचितम् आसीत्। एवमेव राष्ट्रिय स्वतन्त्र दलस्य सांसद स्वर्णिम वाग्ले राष्ट्रिय प्रजातन्त्र दलस्य सांसद ज्ञानेन्द्र साई नेपाली कांग्रेस दलस्य सांसद रामहरि खतिवड़ा स्वतन्त्र सांसद अमरेश कुमार सिंह नेपाल मजदूर किसान पार्टी नाम्नो दलस्य सांसद प्रेम सुबालश्च आयव्ययकस्य करस्य अंकानाम् परिवर्तन कर्मणि अनधिकृत व्यक्तेः प्रवेशनस्य विषये अर्थमन्त्रिणः डा महत इत्यस्मात् उत्तरम् अभ्ययाचन्त। प्रतिनिधिसभायाः अपरोपवेशः अद्य पूर्वाह्नस्य 11 वादने वसति। राष्ट्रियसभाया गतदिवसाय आकारितः उपवेशः अद्य वसति। ह्यः पूर्वाह्नस्य आसन्न 11 वादनाय आकारितः उपवेशः विशेष कारणवशात् अद्य एतस्मिन्नेव समये उपवेशनत्वेन समयान्तरितः इति संघीय संसदः महासचिव डा भरतराज गौतमः ज्ञापयति। नेकपा माओवादी केन्द्रेण कोशी प्रदेशे नेकपा एमाले दलस्य नेतृत्वस्य सर्वकाराय प्रदत्तम् समर्थनम् प्रत्यावर्तितमस्ति। माओवादी केन्द्रस्य कोशी प्रदेशस्य संसदीय दलस्य नेता इन्द्रबहादुर आङ्बो मुख्यमन्त्रिणः हिक्मत कुमार कार्किणः नेतृत्वस्य सर्वकाराय प्रदत्तम् समर्थनम् प्रत्यावर्तितम् अस्तीति अज्ञापयत्। केन्द्रीय गठबन्धने सम्भूतस्य परिवर्तनस्य कारणेन आत्मभिः समर्थनम् प्रत्यावर्तितमिति असौ असूचयत्। केन्द्रस्य संसदीय दलस्य उपवेशेन सर्वकाराय प्रदत्तस्य समर्थनस्य प्रत्यावर्तनेन सहैव माओवादी केन्द्रात् सहभागी मन्त्रीद्वयमपि प्रत्यावर्तयितुम् निर्णीतमस्ति। प्रधानमन्त्री पुष्पकमल दाहाल प्रचण्डः निगदति सुदूर पश्चिम प्रदेशस्य मुख्य धार्मिक स्थलस्य पर्यटकीय स्थलस्य च खप्तड क्षेत्रस्य अतिरिक्त विकासाय विस्तृत कार्ययोजना निर्मास्यते। सुदूर पश्चिम प्रदेश सर्वकारेण खप्तड क्षेत्रे आयोजितस्य प्रथम खप्तड आध्यात्मिक सम्मेलनस्य उद्घाटन समारोहे पूर्वे द्युः प्रधानमन्त्री प्रचण्ड खप्तड क्षेत्रम् न केवलं सुदूर पश्चिम प्रदेशस्य अपितु नेपालस्यैव अलौकिक भूमिरस्तित्यतः अस्य क्षेत्रस्य अतिरिक्त प्रवर्धनाय अन्य व्यवस्थापनाय च आत्मना उच्च प्राथमिकता प्रदीयते इति असूचयत। प्रधानमन्त्री प्रचण्डः सम्मेलनेन खप्तड क्षेत्रस्य अन्तर्राष्ट्रिय स्तरे प्रचार प्रसारौ सम्भूतौ महत्वञ्च वर्धितमिति भाषमाणः अस्य क्षेत्रस्य समग्र विकासाय विज्ञैः सह परामर्शनं गृहीत्वा अन्तर्राष्ट्रियाध्यात्मिक खप्तड धाम्नः रूपेण विकासाय बलं प्रादात्। समारोहे पूर्व प्रधानमन्त्री जलनाथ खनालः, परराष्ट्रमन्त्री एनपी साउद, नेकपा एमाले दलस्य नेता भीम रावल, नेपाली कांग्रेस दलस्य नेता रमेश लेखकश्चेत्यादय खप्तड क्षेत्रस्य धार्मिक पर्यटकीय विकासात् देशस्यैव अर्थतन्त्रे सुधारो भविष्यति, त्यतः अस्य क्षेत्रस्य अन्तर्राष्ट्रियाध्यात्मिक स्थलस्य रूपेण विकासाय सर्वैः निकायैः स्वस्व क्षेत्रात् भूमिका निर्वोढव्येति विचारं व्यक्तवन्तः। समारोहे योग गुरुः रामदेवः खप्तड क्षेत्रं धार्मिक स्थलस्य रूपेण अतिरिक्तम् अग्रे वर्धयितुं स्वस्य पूर्ण सहयोगो भविष्यति इति उदैरयत। कार्यक्रमे गृहमन्त्रिणा सहितानां मन्त्रिणां, राजदूतानां, जनप्रतिनिधीनां, राष्ट्रसेवक कर्मचारिणां, योग साधकानां च सहभागिता आसीत्। सर्वोच्च न्यायालयेन टीकापुर घटनायाः दोषिणे रेशम चौधरिणे प्रदत्तस्य क्षमादानस्य प्रकरणे कारण प्रदर्शनादेशः प्रदत्तोऽस्ति। न्यायाधीशस्य प्रकाशमान सिंह राउत इत्यस्य एकल न्यायपीठेन ह्यः सर्वकारस्य नाम्नि कारण प्रदर्शनादेशः प्रदत्तो वर्तते। न्यायिक प्रकरणेऽस्मिन् न्यायालयेन अग्राधिकारः प्रदत्तोऽस्ति। कैलाली जनपदस्य टीकापुरे विहिते हत्याकाण्डे जनपद न्यायालयाद् उच्च न्यायालयाद् सर्वोच्च न्यायालयाच्च निर्धारित दोषिणे चौधरिणे सर्वकारस्य परामर्शेन राष्ट्रपतिना रामचन्द्र पौडेलेन गणतन्त्र दिवसस्य अवसरे क्षमादानं प्रदत्तम् आसीत्। क्षमादान प्रदानस्य निर्णयस्य विरूद्धे टीकापुर घटनायाः पीडितया शारदा कडायत बोहरा इत्यनया पञ्जीकारितस्य आदेशाभियाचन निवेदनस्य श्रवणं विदधानेन न्यायालयेन एवं आदेशः प्रदत्तोऽस्ति। प्रधानमन्त्री पुष्पकमल दाहाल प्रचण्ड भाषते राष्ट्रस्य पर्यटन क्षेत्रं सर्वकारेण उच्च प्राथमिकतायां स्थापितं वर्तते। काष्ठमण्डपे ह्यः प्रारब्धं हिमालयीय पर्यटन मेलनस्य चतुर्थ संस्करणम् उद्घाटयन् प्रधानमन्त्री प्रचण्ड उच्च प्राथमिकतायां स्थापिते पर्यटन क्षेत्रे निर्भयं निवेशनं विधातुं व्यवसायिनः अन्वरुणत। प्रधानमन्त्री दाहाल पर्यटनस्य पूर्वाधारे निवेशनं विधातुं विश्व समुदायञ्च आह्वयत। अनुपम प्राकृतिक सुन्दरता, भौगोलिक विविधता, मनोरम हिम श्रृंखला, भाषा, कला, सम्पद, संस्कृतिश्चेति विविध गुणैः महत्वपूर्ण गन्तव्यस्य रूपेण नेपाल सम्पन्नोऽस्तीति भाषमाणः प्रधानमन्त्री दाहाल नेपालस्य पर्यटन क्षेत्रम् आर्थिक समृद्ध्या सह योजयित्वा देशस्य अर्थतन्त्र सुधार कर्तुं शक्यते इति धारणां व्यक्तवान्। सिन्धुली जनपदस्य गोलन्जोर ग्रामपालिकायाः सप्तमवडा क्षेत्रस्य लोकुन स्थाने सुनकोशी नद्यां निपत्य विलोपितं प्राविधिक शिक्षा व्यावसायिक प्रशिक्षण परिषदः कर्मचारिभिः आरूढं यानं जनद्वयस्य सबौ च सशस्त्र प्रहरी बल नेपालस्य जलप्लवन कुशल समूहेन ह्यः प्राप्ताः वर्तन्ते। एको जनः इदानीमपि विलुप्तो वर्तते। एतस्य अन्वेषण कार्यं संचलद स्थिति सशस्त्र प्रहरिणः केन्द्रीय प्रवक्ता सशस्त्र प्रहरी वरिष्ठोपरीक्षक राजेन्द्र खड्का अज्ञापयत। सबौ इमौ परिषदि प्रशासन शाखाया निर्देशकस्य सप्तपञ्चाशत् वर्षीयस्य कृष्ण केसी इत्यस्य, इलाम जनपदस्य सूर्योदय नगरपालिकायाः पञ्चमवडा क्षेत्र निवासिनः द्वात्रिंशत् वर्षीयस्य विद्युत प्रशिक्षकस्य भानु पौडेलस्य च वर्तेते इति सशस्त्र प्रहरिणा ज्ञापितमस्ति। इति समाचाराः।